सर्वेषां स्वागतम्। अस्माकं प्रवर्तमानविषयः अस्ति लङ्लकारः इति। गतवर्गे वयं लङ्लकारस्य परस्मैपदीधातूनाम् अपि आत्मनेपदीधातूनां रूपाणि अस्माभिः दृष्टम्। अत्र परस्मैपदीधातूनां लङ्लकारस्य तत्र छल् इति धातोः रूपाणि पुटसङ्ख्या 82 मध्ये दत्तमस्ति, अपि च आत्मनेपदीधातूनां सामान्यरूपं साधारणरूपम् इति तत्र भाषते इति तादृश, तस्य लङ्लकारस्य रूपं पुटसङ्ख्या 83 मध्ये दत्तमस्ति, तदेव वयं गतवर्गे कृतवन्तः। तत्र एकवारं तस्य रूपस्य किञ्चित् पुनस्मरणं कृत्वा, तत्र गृहपाठकरपत्रम् अपि आसीत्, तत्र केवलं एकं पुटत्रयं प्रायशः अस्ति तत्र, तत् कृत्वा अग्रे गच्छामः। अस्तु, तर्हि तत्र गच्छति इति क्रियापदस्य लङ्लकारे प्रथमपुरुषे रूपाणि कानि? शोभा भगिनी,
गच्छति, अगच्छत्, अगच्छताम्, अगच्छन्।
हा, समीचीनं भगिनि। अस्तु, उषा भगिनी, मध्यमपुरुषे
अगच्छः, अगच्छतम्, अगच्छत्।
हा, समीचीनं भगिनि। अस्तु, वेणुगोपाल् महोदय, तत्र प्रथमपुरुषे किं भवति गच्छति इति?
आगच्छत्, आगच्छताम्, आगच्छन्।
न न न, क्षम्यताम्, उत्तमपुरुषे, उत्तमपुरुषे, मम दोषः, उत्तमपुरुषे।
आगच्छतम्,
अगच्छम्, अगच्छम्,
अगच्छम्, आगच्छाव, आगच्छाम।
हा, तत्र तकारः नास्ति। हा, समीचीनं महोदय। अस्तु, हा, नरेश महोदय, तत्र चलति इति प्रथमपुरुषे रूपाणि कानि?
अचलत्, अचलताम्, अचलन्।
हा, इति अस्ति। अस्तु, समीचीनं। हा, शुभा भगिनी, मध्यमपुरुषे चलति इति?
अचलः, अचलतम्, अचलत।
हा, इति समीचीनं। हा, नरेश महोदय, नमस्कारः। उत्तमपुरुषे चलति इति?
अचलम्, अचलाव, अचलाम।
हा, इति समीचीनम्। अस्तु, बनचितनी महोदय, इदानीं तत्र करपत्रं यत् अस्ति प्राप्तं खलु? सर्वे प्राप्तवन्तः? हा, करपत्रम्, अभ्यासपत्रं यत् अस्ति। हा, बनचितनी महोदय, तत्र प्रथमपुटे तत्र अभ्यासः 121 इति अस्ति। हा,
महोदय, महोदय,
हा,
एकनिमिषं।
हा,
प्राप्तं किन्तु।
नमस्कारः महोदय।
जयन्त महोदय, नमस्कारः।
नमस्ते, अरुणाराम।
अरुणा भगिनी, अस्तु, नमस्कारः भगिनी, स्वागतम्।
नमस्ते,
नमस्कारः। तत्र करपत्रम् अस्ति भगिनी, अभ्यासपत्रम् ईमेल् द्वारा प्रेषितम् अस्ति। अस्तु,
महोदय, महोदय, किं करणीयं महोदय?
तत्र आरम्भं करोतु महोदय, तत्र
गम् धातोः भूतकाले प्रयोगाः, रिक्तस्थानानि उचितक्रियापदैः पूरयन्तु।
तत्र कोष्टकम् अस्ति, वयं सर्वे जानीमः, तत्र उदाहरणं उक्त्वा द्वितीयं करोतु महोदय। तत्र
सः ह्यः विद्यालयं न अगच्छत्। एतौ छात्रौ ह्यः भ्रमणाय नगरम् अगच्छताम्।
हा, अगच्छताम्। तत्र पुरुषः वचनं, पुरुषः कः, वचनं किम्?
एतौ छात्रौ महोदय, द्विवचनं, प्रथमपुरुष, द्विवचनं रूपाणि महोदय इति।
समीचीनं महोदय, धन्यवादः। समीचीनं महोदय, अस्तु, रघुपति महोदय, नमस्कारः।
नमस्कारः महोदय।
नमस्कारः, तत्र करपत्रं यत् प्रेषितम् अस्ति ईमेल् द्वारा, तत् कुर्वन् स्मः।
विभक्ति, विभक्ति नाम वा?
न न न, लङ्लकार रूपम् अभ्यासपत्रम् इति एकं प्रेषितं लङ्लकारः इति
अस्तु
हा अग्रे नरेश महोदय अग्रिमं करोति वा तत्र
ताः बालिकाः अपि परह्यः भ्रमणाय मुम्बैनगरीम् अगच्छन्
अगच्छन् समीचीनं महोदय हा अस्तु शोभा भगिनी अग्रे
किं त्वम् अपि ह्यः कुत्रचित् अगच्छः
हा अगच्छः समीचीनं भगिनी हा उषा भगिनी अग्रे
अहं तु गृहे एव आसम् कुत्रचित् अपि न अगच्छम्
समीचीनं हा शुभा भगिनी
युवां कुत्र अगच्छतम्
हा युवां कुत्र अगच्छतं समीचीनं वेणुगोपाल महोदय
आवां गङ्गास्नानाय प्रागम् अगच्छावा
आवां गङ्गास्नानाय प्रयागं
स्नाय पराय सोरि
प्रयागं प्रयागं
प्रयागम् आगच्छाव
अगच्छाव
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 अगच्छाव हा समीचीनं महोदय हा अस्तु अग्रे अरुणा भगिनी वदति वा अग्रे
आं महोदय यूयं कुत्र अगच्छत
हा यूयं कुत्र अगच्छत समीचीनं हा जयन्त महोदय अग्रे
आवां वयं वयं वाराणसीम् अगच्छाम
अगच्छाम समीचीनं हा अन्य कोऽपि वनचित्र महोदय उक्तवान् सर्वे उक्तवन्तः इति मन्ये हा रघुपति महोदय अन्तिमं तत्र
एकनिमिषं महोदय भवान् एकनिमिषं दृष्ट्वा भवान् कदा भवान् कदा आगच्छत्
हा भवान् कदा आगच्छत् समीचीनं महोदय अस्तु अस्तु समीचीनम् अस्तु प्रथम अभ्यासः सुलभतया सर्वे कृतवन्तः अस्तु अग्रे इदानीं उषा भगिनी आरम्भं करोति वा द्वितीय अभ्यासः तत्र अग्रिमे पुटे
122 अस्ति न महोदय
हा सत्यं भगिनि सत्यं
प्रथमपुरुषस्य उचितक्रियापदरूपेण रिक्तस्थानानि पूरयन्तु
सा
पत्रिकाम् अपठत् बालकाः कथाम् अपठन्
हा इदानीं पट् इति धातुः अस्ति हा समीचीनं भगिनि हा अस्तु अग्रे शुभा भगिनी
भवान् समाचारपत्रम् अपठत्
हा भवान् समाचारपत्रम् अपठत् समीचीनं भगिनी हा शोभा भगिनी
सीता निबन्धम् अपठत्
हा समीचीनं हा वेणुगोपाल महोदय
तौ श्लोकान् अपठताम्
हा तत्र अपठताम् अकारः दीर्घः नास्ति महोदय ह्रस्वकारः हा
हा अपठताम्
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 हा तत्र आ इति नास्ति महोदय अपठताम्
अपठताम्
हा समीचीनम् अस्तु हा नरेश महोदय अग्रे
भवत्यौ ग्रन्थम् अपठताम्
अपठताम् समीचीनं हा अरुणा भगिनी
तौ व्याकरणम्
अपठताम् समीचीनं भगिनी हा जयन्त महोदय
ते बालिके काव्यम् अपठन्
हा समीचीनम् अस्तु रघुपति महोदय
तत्र ते बालिके
क्षम्यतां 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 द्विवचने मम
ते बालिके काव्यम् अपठतां
समीचीनं हा धन्यवादाः हा रघुपति महोदय
सह सूचनाम् अपठन् अपठत्
अपठत् हा समीचीनं हा श्रीप्रिया भगिनी
तौ
सा शास्त्रम् अपठत्. समीचीनं भगिनि, अस्तु. भानुचेतनी महोदय.
आं महोदय, ताः विज्ञानं, सा ते ताः. अहं चिन्तयामि एतत् स्त्रीलिङ्गं बहुवचनं रूपम् अस्ति महोदय, अतः प्रथमपुरुष बहुवचनम् अपठन्, ताः विज्ञानम् अपठन्.
हा, समीचीनं महोदय. हा, अस्तु. उषा भगिनी अग्रे.
भवान्, भवन्तौ, भवन्तः बहुवचनं, भवन्तः व्याकरणम् अपठन्.
भवन्तः व्याकरणम् अपठन्, समीचीनं. हा, शुभा भगिनी.
एते महिले पत्रम् अपठताम्.
हा, एते महिले पत्रम् अपठताम्, समीचीनं. हा, शोभा भगिनी.
एताः वृद्धाः स्तोत्रम् अपठन्.
अपठन्, समीचीनं. हा, वेणुगोपाल् महोदय.
छात्रौ कादम्बरी अपठताम्.
हा, तत्र द्वितीयपदं किं?
द्विवचनमस्ति तत्र.
हा, सत्यं सत्यं. छात्रौ, द्वितीयपदं किम् अस्ति?
कादम्बरी.
किन्तु अन्ते किम् अस्ति?
कादम्बरीं.
किमर्थं तत्र मकारः अस्ति?
तत्र द्विवचनमस्ति तत्र, कादम्बरीं.
न, छात्रौ द्विवचने इति नास्ति महोदय, किन्तु द्वि इति किम् अन्यत् किमपि अस्ति, भवान् जानाति. छात्रौ इति द्विवचने अस्ति, कादम्बरीम् इत्युक्ते किं? स्तोत्रम् अस्ति, व्याकरणं,
नपुंसकलिङ्गम् अस्ति तत्र.
हा, सत्यं सत्यं. किन्तु तत्र श्लोकान्, कथां, पत्रिकाम् इति पूर्वम् आसीत् खलु, सा पत्रिकाम् अपठत्. द्वितीयविभक्ति अतः मकारः तत्र आवश्यकमस्ति. अतः छात्रौ,
छात्रौ
प्रथमतया तत्र छात्रौ, तदनन्तरं पदं किम् अस्ति तद्
द्वितीय.
न, इदानीं तत्र छात्रौ इदानीम् अस्तु, किं रूपम् आवश्यकं तत्र? छात्रौ अपठत् वा, अपठतां वा, अपठन् वा?
छात्रौ द्विवचनमस्ति.
अस्तु, अतः किं रूपम्?
अपठताम् इति
अपठताम्. सत्यम् अपठताम्. छात्रौ अपठताम्. किन्तु किन्तु मध्ये तत्र तत्र कर्मपदम् अस्ति, तद् तद् इदानीं वदतु किम् अस्ति. छात्रौ किम् अपठताम्? समीचीनं महोदय. छात्रौ कादम्बरीम् अपठताम्, समीचीनं महोदय. समीचीनम्, अस्तु. अग्रे नरेश महोदय, अग्रिम अभ्यास आरम्भं करोति वा?
विलम्बेन आगतवती.
गीताञ्जलि भगिनी, नमस्कारः. चिन्ता मास्तु भगिनि, तत्र करपत्रं प्रेषितं मया, तत्र तृतीयपुटे वयं स्मः.
क्षम्यतां, धन्यवादः.
नरेश महोदय,
उचित क्रियारूपेण रिक्तस्थानानि पूरयन्तु. ते छात्राः पुस्तकं अपठताम्. ते छात्राः अपठन्, पुल्लिङ्ग अस्ति, अपठन्.
हा, ते छात्राः
पुस्तकम् अपठन्.
हा, अपठन् छात्राः इति बहुवचने अस्ति इति कृत्वा, समीचीनम्. अस्तु, समीचीनं. हा, अस्तु. अग्रे अरुणा भगिनी, अग्रिमं.
वयं पत्रम् अलिखाम.
वयं पत्रम् अलिखाम, समीचीनं भगिनि. हा, जयन्त मोदी अग्रे.
तौ कुत्र अगच्छताम्?
हा, तौ कुत्र अगच्छताम्? समीचीनम्. हा, रघुपति महोदय अग्रे.
एकनिमिषं महोदय, मोबैल् मध्ये अस्ति. तौ अत्र सिंहाः अगर्जन्.
सिंहाः अगर्जन्, समीचीनं. श्रीप्रिया भगिनी.
मयूराः अनृत्यन्.
हा, मयूराः अनृत्यन्, समीचीनम्. हा, गीताञ्जलि भगिनी.
वानराः अखादन्.
हा, वानराः अखादन्, समीचीनम्. हा, भानुचेतनी महोदय.
मेघाः अवर्षन् अवर्षत अवर्षः. महोदय, मेघाः तु प्रथमपुरुष इति.
हा, सत्यं, प्रथमपुरुष वचनं
बहुवचनम्. अतः ताम् अन् अवर्षन् महोदय. मेघाः अवर्षन्,
समीचीनं महोदय. हा, अस्तु. उषा भगिनी.
अध्यापकाः बहुवचनम्. अध्यापकाः पाठान् पाठयन्.
पाठान् अपाठयन्, समीचीनं भगिनी. हा, शुभा भगिनी.
भवान् शुभा उक्तवान्.
क्षम्यतां. हा, तत्र शुभा, शुभा भगिनी. हा, अस्तु, शुभा भगिनी नास्ति. हा, शुभा भगिनी भवती वदतु इदानीं.
यूयं लेखनीः अयच्छत.
इति बहुवचने अस्ति. तत्र
यूयं बहुवचने अस्ति. तत्र अयच्छाम उत्तमपुरुष, अयच्छत मध्यमपुरुष बहुवचन. यूयं लेखनीः अयच्छत.
हा, समीचीनं भगिनि. हा, समीचीनं. हा, अस्तु. वेणुगोपाल् महोदय अग्रे.
आरक्षकौ चोरम् आताडयताम्.
अताडयताम्. महोदय, एकवारम् अ अपि आ एकवारं वदतु महोदय. इति. अताडयताम्. हा, इति समीचीनं महोदय. अस्तु, नरेश महोदय.
आवाम् अक्रीडाव.
हा, आवाम् अक्रीडाव, समीचीनम्. हा, अरुणा भगिनी.
युवां पुस्तकम् अलिखितम्.
हा, युवां, त्वं युवां, यूयं, युवाम् इति मध्यमपुरुषे द्विवचनम्. हा, अतः
अलिखितम्.
अलिखितं, समीचीनं भगिनि. हा, जयन्त महोदय अग्रे.
अहं शिलाखण्डम् अक्षिपम्.
अक्षिपं, समीचीनं. हा, रघुपति महोदय.
ते श्लोकान् अवदन्.
हा, ते श्लोकान् अथवा अन्यत्र स्त्रीलिङ्गे आसीत् चेत् ते श्लोकान्
ते श्लोकान् अवदताम् इति.
अवदताम् इति भवति, समीचीनं महोदय. हा, श्रीप्रिया भगिनी अग्रे.
युवां शाकम् अकर्तयतम्.
हा, युवां शाकम् अकर्तयतं, समीचीनं. हा, गीताञ्जलि भगिनी.
सा गीतम् अगायत.
अगायत्. हा, अगायत इति तत्तु आत्मनेपदि धातोः इति रूपं भवति. हा, अगायत्, समीचीनं भगिनि. हा, वंशीसुधा भगिनी, नमस्कारः.
नमस्ते महोदय, बहु विलम्बः जातः.
चिन्ता मास्तु भगिनि, तत्र अभ्यासपत्रं प्रेषितं मया, तत्र तृतीयपुटे अन्तिम अभ्यासः
पुष्पाणि अशुष्यन्
पुष्पाणि
अशुष्यन्
समीचीनं भगिनि अस्तु अस्तु तर्हि समीचीनम् अस्ति अतः रूपस्य पुनस्मरणं जातम् इदानीं अस्तु तर्हि अग्रिमवर्गे वयं तत्र एतादृश अभ्यासम् आत्मनिपदी धातूनां कुर्मः किन्तु इदानीम् अग्रे गच्छामः तत्र परस्मैपदी धातूनां तेषां पुनस्मरणमपि अभ्यासं कृतम् इदानीम् अग्रे सरामः तत्र स्म इति रूपस्य किञ्चित् परिचयः अस्ति तदनन्तरं कथां पठितुं शक्नुमः इति मन्ये अस्तु तर्हि तत्र
क्षम्यतां महोदय इति यस्य अर्थः अपि मम प्रश्नः अपि
शुष्कः तादृश
शुष्कः
सत्यं अस्तु समीचीनम् अस्तु अग्रे इदानीं गीतासोपने पेज् 85 मध्ये स्मः तत्र अस्तु अरुणा भगिनी पठति वा तत्र
अहं पुस्तकं मम पार्श्वे नास्ति
अस्तु 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 तर्हि अस्तु तर्हि तत्र श्रीप्रिया भगिनी अपि इदानीं शुभा भगिनी अस्ति वा इदानीं नास्ति अस्तु पुटसङ्ख्या 85 महोदय अस्तु तत्र
महोदय अहम् अस्मि
अस्तु भगिनि अस्तु तत्र अस्तु तर्हि शुभा भगिनी अपि श्रीप्रिया भगिनी तत्र सम्भाषणम् यदस्ति पठन्तु एका पितामही अपि अन्या बालकः इति श्रीप्रिया भगिनी आरम्भं करोतु
एतत् सम्भाषणम् उच्चैः पठत अवगच्छत च पितामही वत्स अहं ह्यः एकां कथाम् अश्रावयम् स्मरसि किम्
बालकः आम् स्मरामि
पितामही तर्हि वद कः कः किं किं करोति स्म
बालकः सञ्जयः श्रावयति स्म धृतराष्ट्रः शृणोति स्म अर्जुनः दुःखम् अनुभवति स्म कृष्णः बोधयति स्म
पितामही सम्यक् कृष्णः किं करोति स्म
बालकः कृष्णः पाण्डवानां मार्गदर्शनं करोति स्म सर्वेषु उत्साहं पूरयति स्म अश्वानां परिचरणं करोति स्म सर्वान् युद्धनीतिं बोधयति स्म रथं चालयति स्म अर्जुनस्य रक्षणं कुरुते स्म
धन्यवादः अस्तु समीचीनं तत्र रक्तवर्णे स्म इति यद् अस्ति तदेव सः एव विषयः यदि स्म इति पदं नास्ति तत्र सञ्जयः श्रावयति धृतराष्ट्रः शृणोति अर्जुनः दुःखम् अनुभवति तत्तु लट्लकाररूपमस्ति वर्तमानकाले अस्ति किन्तु तदेव वाक्यं केवलं स्म इति अन्ते तस्य योजनेन अर्थपरिवर्तनं भवति इदानीं भूतकाल अर्थे भवति अतः सञ्जयः श्रावयति वर्तमानकाले अस्ति किन्तु सञ्जयः श्रावयति स्म इति इत्युक्ते भूतकाले अस्ति सः इदानीं न श्रावयति किन्तु सः श्रावयति स्म इति तादृशरूपम् अस्ति. केवलं स्म इति उपयुज्य वयम् अर्थपरिवर्तनं कालपरिवर्तनं कर्तुं शक्नुमः. तत्र किञ्चित् पश्यामः, तत्र स्मरसि किं, तत्र कः कः किं किं करोति स्म इति अस्ति प्रश्नवाचकः. कः 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 किं किम् इति, कः कः इति कर्तृपदस्य प्रश्नवाचकपदम्, अपि किं किम् इति कर्मपद, कार्यं किं करोति स्म इति कर्मपदस्य प्रश्नवाचकपदम् अस्तु. तत्र कृष्णः बोधयति स्म इति अस्ति, तदनन्तरं कृष्णः किं करोति स्म, तत्र कृष्णः पाण्डवानां मार्गदर्शनं करोति स्म, सर्वेषु उत्साहं पूरयति स्म, अश्वानां परिचरणं करोति स्म, सर्वान् युद्धनीतिं बोधयति स्म. तत्र कृष्णः सर्वान् युद्धनीतिं बोधयति स्म, तत्र किञ्चित् विशेषः अस्ति, कोऽपि वक्तुम् इच्छति वा कः विशेषः तस्मिन् वाक्ये? तत्र कृष्णः मार्गदर्शनं करोति स्म, कृष्णः उत्साहं पूरयति स्म, कृष्णः परिचरणं करोति स्म, कृष्णः सर्वान् युद्धनीतिं बोधयति स्म.
महोदय, सर्वान् इति द्वितीय विभक्ति,
सर्वान् द्वितीय विभक्ति अस्ति, अपि युद्धनीतिमपि द्वितीय विभक्तौ. समीचीनं समीचीनम्. अतः बोधयति इति कं बोधयति, अपि किं बोधयति. कृष्णः बुद्धनीतिं बोधयति स्म, कं बोधयति स्म, सर्वान् बोधयति स्म, अतः कान् अथवा कम् अपि, यदि न जानीमः, यदि न जानीमः उत्तरं न जानीमः तत्र प्रश्नः तु कम् इति एव भवति. यदि जानीमः उत्तरं सर्वान् इति अस्ति चेत् तस्मिन् समये कान् इति वक्तुं शक्नुमः. समीचीनं. अतः कृष्णः सर्वान् युद्धनीतिं बोधयति स्म, द्विकर्मकक्रियापदम् अस्ति तत्र. रथं चालयति स्म, अर्जुनस्य रक्षणं कुरुते स्म. अत्र अन्तिमवाक्यं प्रदर्शयति अर्जुनस्य रक्षणं कुरुते स्म, तत्र प्रदर्शनमस्ति केवलं परस्मैपदी धातूनां अर्थपरिवर्तनं न, अपि तु आत्मनेपदी धातूनाम् अपि परिवर्तनं भवति स्म इति पदस्य योजनेन. तत्र भूतकाल अर्थः भवति. कुरुते इति वर्तमानकाले अस्ति, किन्तु कुरुते स्म अस्ति चेत् भूतकाल अर्थः भवति. अत्र एतत् लघु अभ्यासः अभ्यासं कृत्वा भवन्तः अपि एतादृशं वाक्यं चिन्तयन्तु, एकमेकं वाक्यं, किन्तु अभ्यासं कृत्वा अहं पृच्छामि. अस्तु, तर्हि तत्र पश्यामः. तत्र वेणुगोपाल् महोदय प्रथमं करोति वा तत्र?
आं महोदय. उपरितनं सम्भाषणं पठित्वा प्रश्नानां उत्तराणि लिखत. कः श्रावयति स्म? सञ्जयः आश्रावयत्.
न न, इदानीं उत्तरमपि श्रावयति स्म इति तदेव रूपम् इदानीं.
अस्तु अस्तु महोदय. सञ्जयः श्रावयति स्म.
सञ्जयः श्रावयति स्म. समीचीनं महोदय. अस्तु, वंशी सुधा भगिनी.
आं महोदय, द्वितीयबिन्दु अस्ति कः दुःखम् अनुभवति स्म? अर्जुनः दुःखम् अनुभवति स्म.
समीचीनम्. अस्तु, शोभा भगिनी.
कृष्णः सर्वेषु किं पूरयति स्म? कृष्णः एकनिमिषं महोदय, पूरयति स्म तत्र उत्साहं. कृष्णः सर्वेषु उत्साहं पूरयति स्म.
महोदय, अत्र उत्साहमपि द्वितीय महोदय.
आम् आम्,
द्वितीयविभक्ति.
सत्यं, किं पूरयति इति. अहं किं चषके जलं पूरयामि इति.
उत्साहः इति पुल्लिङ्गपदं.
तत्र द्वितीयविभक्तो अस्ति तत्. भानुचेतनी महोदय अग्रिमं.
महोदय प्रथमबिन्दु महोदय
चतुर्थ इदानीं
कः रथं चालयति स्म? श्रीकृष्णः रथं चालयति स्म.
समीचीनं महोदय. अस्तु, उषा भगिनी अग्रे.
कृष्णः कस्य रक्षणं कुरुते स्म? कृष्णः अर्जुनस्य रक्षणं कुरुते स्म.
हा, समीचीनं भगिनी. अस्तु, अग्रे नरेश महोदय.
सः कथां शृणोति स्म? धृतराष्ट्रः कथां शृणोति स्म?
हा, समीचीनं महोदय. अस्तु, हा, इदानीं रघुपति महोदय, भवतः वाक्यं स्म इति उपयुज्य.
महोदय क्षम्यताम्. स्म इति उपयोगः कृतवान् करोति स्म कृतवान् समानमेव किम्?
तद् वदामि भगिनि. तत्र अस्तु, तत्र कृतवान् अथवा अकरोत् अपठत् इति तदपि भूतकालरूपम् अस्ति, अपि करोति स्म तदपि भूतकालरूपम् अस्ति, किन्तु तत्र तयोः मध्ये भेदः अस्ति. भेदः कीदृशः इत्युक्ते, तत्र किमपि कार्यम् एकवारम् अस्तु, तत्र ह्यः अहं गणितपुस्तकम् अपठम् इति अस्ति. तत्र केवलम् एकवारम् अहम् अपठं गणितपुस्तकं, किन्तु यदि अहं वदामि ओ गतवर्षे अहं चलनचित्रं पश्यामि स्म, तत्र तस्य अर्थः अस्ति केवलम् एकवारं वर्षे केवलम् एकवारम् अहं चलनचित्रं दृष्टवान् इति न, किन्तु वारं वारम् अहं गत्वा पश्यामि इति. अत्र तत् स्म इत्युक्ते तत्र केवलम् एका एव घटना इति नास्ति, सा क्रिया तां क्रियां बहुवारं कृतवान् अहम् इति तादृश अर्थे अस्ति. तत्र आङ्ग्लभाषायां वदन्ति कण्टिन्यूस् इति यदस्ति खलु. किं भगिनि? तादृश अर्थे, केवलम् एकवारं न, बहुवारं तस्मिन् समये अथवा काले किमपि कार्यं यद् अभवत्, किन्तु प्रतिदिनम् अथवा बहुवारं तत् कार्यं कृतम् इति वक्तुम् इच्छामश्चेत् तत्र स्म इति वदामः. तत्र सञ्जयः केवलम् एकवारं श्रावितवान् इति नास्ति खलु, अष्टादशदिनं सः श्रावितवान् इति, अतः श्रावयति स्म इति तादृश अर्थः भवति.
महोदय, महोदय, परन्तु तत्र कुरुते स्म इति आत्मनेपदी रूपम् अस्ति न महोदय? तत्र करोति स्म अपि समानार्थः भवति वा?
तत्र केवलं प्रदर्शनार्थम् आत्मनेपदी धातुः अपि वयं तत्र तस्य अपि भूतकाल अर्थः कर्तुं शक्नुमः इति.
अस्तु अस्तु,
तावदेव इति चिन्तयामि. अन्य
महोदय एकः प्रश्नः अस्ति. यदा अहं तस्य गृहं गतवती तदा सः पठति स्म, एतत् वाक्यं सम्यक् वा महोदय?
तदा सः पठति स्म,
अहं चिन्तयामि सम्यक् अस्ति कण्टिन्युस्
किमपि कार्यम् एकवारमेव अभवत् इत्युक्ते तत्र पठितवान् इति हा सः पठति स्म इति समीचीनमेव इति मन्ये भगिनि
अभ्यासपुस्तके पठितवन्तः किल गते स्तरे
तादृशरूपम् अस्ति वा अहं न स्मरामि भगिनि अस्ति वा अस्तु समीचीनम् अस्तु 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 किं वाक्यं किम् आसीत् अभ्यासपुस्तके
सम्यक् न
किं भगिनि
सुन्दरेशः बन्धुगृहम् एकं निमिषं महोदय मातामह ध्यानं करोति स्म मातुलानि पाकं पचति स्म
हा किन्तु तत्र किन्तु अहं यदा अहं मित्रस्य गृहं गतवान् अथवा गतवती तदा सः अथवा सा इति वक्तुं तत् सम्यक् इति मन्ये भगिनि
अस्तु महोदय धन्यवादः
अस्तु
चित्रमस्ति महोदय एक लैक् मातामह ध्यानं करोति माता पाकं करोति कण्टिन्यूस् लैक् दे आर् डूङ्ग्
सत्यं भगिनि सत्यं
पूजां करोति बालकः निद्रां करोति स्म रमा पुस्तकं पठति रमेशः योगासनं करोति स्म मातामही लैक्
शिशुं पालयति स्म
अस्तु भगिनि तद् बहु समीचीनमस्ति भवती अनेकानि उदाहरणानि दत्तवती इदानीं पश्यामः के के तम् उपयुज्य वाक्यानि रचयन्ति इति हा अस्तु 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 समीचीनं हा अस्तु तर्हि रघुपतिमहोदय वाक्यम्
अहं स्म शब्दं योजयित्वा एकं वाक्यं वक्तुं चिन्तयामि स्म
अस्तु अस्तु तर्हि गीताञ्जलि भगिनि
अहं गीतासोपानं पठति स्म
पठामि
स्म
पठामि स्म अस्तु वंशीसुधा भगिनि
वयं आत्मनेपदी कृतवन्तः स्म आत्मनेपथि
कृतवन्तः स्म इति न कृतवन्तः इति तदपि भूतकालरूपं भवति न
अकुर्वन्
वर्तमानकाले क्रियापदं वर्तमानकः अकरोत् भूतकालरूपं न न न न
कुर्मः कुर्मः
कुर्मः स्म
वयं क्षम्यतां महोदय वयम् आत्मनेपदी धातूनां कुर्मः स्म
इति समीचीनं भगिनि तादृशरूपम् अस्तु श्रीप्रिया भगिनि
अहं गणितं पाठयति स्म
पाठयामि स्म
क्षम्यतां पाठयामि
स्म समीचीनं भगिनि अस्तु जयन्त महोदय
अहम् एकं वाक्यम् अन्तर्जाले अन्वेषणं करोमि स्म
अस्तु महोदय अस्तु महोदय अस्तु अरुणा भगिनि
अहं ह्यः बाल्टिमोर् नगरे गच्छामि स्म
समीचीनं भगिनि अस्तु नरेश महोदय
भानुवासरे अहं देवालये बालान् पाठयामि स्म
समीचीनं महोदय वेणुगोपाल् महोदय
पाकशालायां पाकं करोमि स्म
समीचीनं शोभा भगिनि
मम नगरे हिमपातं पतति स्म
समीचीनं भगिनि शुभा भगिनि
अहं ध्यानं करोमि करोमि स्म
अहं ध्यानं करोमि स्म समीचीनम् उषा भगिनी
अहं संस्कृतसम्भाषणस्य अभ्यासं करोमि स्म
अस्तु भगिनि समीचीनं भानुचेतनी महोदय
अहं बहुवारं प्रसादं खादामि स्म
अस्तु महोदय अस्तु महोदय समीचीनं
सर्वानपि ददतु महोदय सर्वानपि ददतु
आगच्छन्तु सर्वे
तत्र महोदय मम एकः प्रश्नः स्म इति प्रयोगः अस्ति चेत् वारं वारं भवति अत्र बहुवारं अपि कार्यं करोति वा बहुवारं करोमि स्म
बहुवारं करोमि केवलं करोमि स्म इत्युक्ते तत्र किञ्चित् अर्थभेदः भवति किञ्चित् अर्थभेदः भवति बहुवारम् इति चिन्तयामः तत्र तत्र एतत् चिन्तयतु तत्र प्रतिदिनं भवती अनेकान् अस्तु किं पठामि स्म बहूनि पुस्तकानि पठामि स्म
अथवा एकमेव पुस्तकं वारं वारं पठामि
तदपि तदपि
महोदय
तत्र अर्थभेदः भवति प्रयोगाः अनेकाः सन्ति किञ्चित् अर्थभेदः अस्ति
महोदय अहं चिन्तयामि वारं वारं नास्ति एतत्तु लैक् आङ्ग्लभाषे ऐ वास् डूयिङ्ग् देट् वर्क्
सत्यं सत्यं महोदय
ऐ वास् डूयिङ्ग् देट् वर्क् अहं तत् कार्यं करोमि स्म
सत्यं महोदय बहुवारमपि तत्र बहुवारं करोमि स्म इति तदपि समीचीनमेव खलु महोदय केवलं तत्र बहुवारम् इत्युक्ते तत्र बहूनि कार्याणि प्रतिदिनम् अहं करोमि स्म इति तदपि वक्तुं शक्नुमः इति खलु
अहं चिन्तयामि तत् समये अहं करोमि स्म I was doing at that time.
Satyam,
महोदय एकः प्रश्नः अस्ति अतः स्म इत्यस्य प्रयोगः भूतकाले न अस्ति यत् कार्यम् इदानीमेव वयं कुर्मः तस्य प्रयोगमपि अहं स्म इत्यस्य कर्तुं शक्यन्ते
प्रश्नं न अवगतम्
भूतकालात् न बोधयति किं स्म इति
स्म इति भूतकाल अर्थम् एव बोधयति
अतः यत् कार्यं वयम् इदानीं कुर्मः
इदानीम् अस्तु इदानीम् अहं पुस्तकं पठामि किन्तु ह्यः अपि अहं पुस्तकं पठितवान् तस्य पूर्वमपि अहं पुस्तकं पठितवान् अतः वयम् अहं वक्तुं शक्नोमि अहं पुस्तकं प्रतिदिनं पठामि स्म इति अद्यापि पठामि किन्तु पठामि स्म इत्युक्ते पूर्वम् अहं बहुवारम् अहं पठामि इति पठितवान् इति
तत्तु भिन्नम् अस्ति आङ्ग्लभाषे past indefinite and past continuous past indefinite yatavan past continuous karoti sma
satyam mahodaya satyam kintu satyam kintu tatra pathami sma yat idanim vartamana kale bhavati tad samyak asti chet tat तदपि तादृश भेदः अपि नास्ति तत्र यदा नरेश महोदय उक्तवान् तत्र कण्टिन्यूस् इति तदेव तत्र महत्त्वपूर्णम् अत्र
कण्टिन्यूस्
इति अर्थे कण्टिन्यूस् इति दत्तवान् पठितवती इति तद् एकवारम् इति अर्थे भवति तत्र ग्रामं गतवान् किन्तु ग्रामं गच्छति स्म इति न वदामः यदि यदि वयं वदामः सः ग्रामं गच्छति स्म इति वदामः तत्र अर्थभेदः अस्ति एकवारं सः ग्रामं गतवान् किन्तु सः गतवर्षे सः सप्ताहान्ते ग्रामं गच्छति स्म इति इदानीं इदानीं सम्यक् वा सर्वे अवगच्छन्ति वा इदानीं
इदानीं भवन्तः किं चिन्तयति स्म इति भवति सम्यक् भवति न
चिन्तयन्ति स्म
चिन्तयन्ति स्म
इदानीं किन्तु इदानीम् इति अस्ति तत्र समीचीनं महोदय समीचीनं अस्तु तत्र कण्टिन्यूस् इति यथा नरेश् महोदयेन उक्तं तदेव तत्र मुख्यांशः अस्ति सः एव अस्तु अस्तु तर्हि अन्यः प्रश्नः अस्ति वा अस्तु तर्हि उदाहरणेन वयं ज्ञातुं शक्नुमः कीदृश अर्थः तत्र भवति इति अस्तु अग्रे अग्रिमपुटे अस्तु तर्हि तत्र अभ्यासः नवम अभ्यासः अस्तु तथा तत्र कः जयन्त् महोदय अग्रिम अभ्यासः आरम्भं करोति वा
आं महोदय यतो धारणं पुरतः विद्यमानं धातुं पठित्वा वाक्यानि रचयत अर्जुनः धनुर्विद्यां जानाति स्म ज्ञा धातुः भीमः बहु खादति स्म
समीचीनं महोदय समीचीनम् अस्तु
महोदय पार्श्वपुस्तकम् अस्ति
अस्तु भगिनि अरुणभगिनी अस्ति वा अस्तु अतः अग्रिमं करोतु भगिनि
दुर्योधनः ईर्ष्यां धातु कृदातु दुर्योधनः ईर्ष्यां करोति स्म
करोति स्म समीचीनं भगिनि अस्तु अग्रे भानुचितनि महोदय
महोदय
कृष्णः
दर्श दातु महोदय कृष्णः लीलां दर्श पश्यति स्म
न दर्शयति दर्शयति
दर्शयति दर्शयति स्म
कृष्णः लीलां दर्शयति स्म समीचीनं महोदय उषा भगिनि
भीष्मः कौरवाणां पक्षतः युद्धातु अस्ति युध्यते इति आत्मनेपदि भवति भीष्मः कौरवाणां पक्षतः युध्यते
स्म युध्यते स्म समीचीनं भगिनि शुभा भगिनि
शकुनिः सर्वदा कूटं रचयति स्म
समीचीनं भगिनि शोभा भगिनि
कौरवाः तत्र इच् धातुः अस्ति कौरवाः पाण्डवान् न इच्छन्ति स्म
समीचीनं भगिनि इच्छन्ति स्म समीचीनं अस्तु वेणुगोपाल् महोदय
युधिष्ठिरः सत्यं ब्रूते स्म तत्र ब्रू धातुः
समीचीनं महोदय समीचीनम् अस्तु नरेश महोदय समीचीनं महोदय अस्तु अग्रे रघुपति महोदय
सैनिकाः लोक् धातु अस्ति लोकते स्म
सैनिकाः न सैनिकाः
लोकन्ति अस्तु लोकन्ति लोकन्ते स्म
समीचीनं महोदय अस्तु अग्रे श्रीप्रिया भगिनी अग्रिमम् अभ्यासम् आरम्भं करोति वा
आम् महोदय. यथोदाहरणं रिक्तस्थानानि पूरयत. बालकः पठति स्म. बालकौ पठतः स्म. बालकाः पठन्ति स्म. खेलति स्म. शिशु खेलतः स्म. खेलन्ति स्म.
तत्र पुनः एकवारं भगिनी, तत्र शिशुः खेलति स्म द्विवचने.
शिशु खेलतः स्म.
शिशवः
खेलन्ति स्म.
शिशुः, शिशुः, शिशवः. समीचीनं भगिनि, अस्तु. समीचीनं भगिनि, अस्तु. गीताञ्जलि भगिनि अग्रे.
मुनिः जपति स्म. मुनिः जपतः स्म. मुनयः जपन्ति स्म.
मुनयः जपन्ति स्म. समीचीनं. वंशीसुधा भगिनी अग्रे.
महोदय, चतुर्थबिन्दु. वधूः समाचारं पठति स्म. वध्वौ समाचारं पठतः स्म. वध्वः समाचारं पठति स्म.
समीचीनं भगिनि. अस्तु. अस्तु अग्रे. शोभा भगिनी अग्रे.
अहं ध्यायामि स्म. वयं ध्यायामः स्म.
आवाम् आवाम् आवाम्.
अहम् आवाम्.
शोभा भगिनि. अहम् आवां वयम्.
तत्र बहुवचने अस्ति. अहं ध्यायामि स्म. आवां ध्यायावः स्म. वयं ध्यायामः स्म.
समीचीनं भगिनि. अस्तु. शुभा भगिनि इदानीं.
भवान् अटति स्म. भवन्तौ अटतः स्म. भवन्तः अटन्ति स्म.
समीचीनं भगिनि. उषा भगिनि.
एषः पाठं स्मरति स्म. एतौ पाठं स्मरतः स्म. एते पाठं स्मरन्ति स्म.
समीचीनं समीचीनं भगिनि. बानचितनी महोदय.
महोदय, भवती विषयं चिन्तयति स्म. भवत्यौ विषयं चिन्तयतः स्म. भवत्यः विषयं चिन्तयन्ति स्म.
समीचीनं महोदय. अस्तु अग्रे वेणुगोपाल महोदय.
तत्र तत्र दत्तमस्ति किल.
तत् तद् तद् एकवारं पठित्वा अग्रिमं करोतु महोदय.
सः सुखं लभते स्म. तौ सुखं लभते स्म.
लभेते लभन्ते.
अस्तु. तौ सुखं लभेते स्म. ते सुखं लभन्ते स्म.
इदानीम् आत्मनिपदि धातु अस्ति.
सा मोदते स्म. ते मोदयते स्म. ताः मोदन्ते स्म.
समीचीनं महोदय. अस्तु समीचीनं. अस्तु अग्रे नरेश महोदय.
अहं याचे स्म. भवान् याचावहे स्म. वयं याचामहे स्म.
समीचीनं महोदय, समीचीनम्. अस्तु. इदानीं तत्र स्म इति विषयस्य अभ्यासं जातम्. अस्तु तर्हि अग्रे गच्छामः. तत्र क्रोधपिशाचः इति कथा अस्ति. तां कथां पठामः इदानीम्. अस्तु तत्र अरुणा भगिनी तत्र आरम्भं करोति वा.
आं महोदय. क्रोधपिशाचः एतां कथां पठत. एकदा श्रीकृष्णः, बलरामः, सात्यकी च वनविहारार्थं गतवन्तः आसन्. वने ते मार्गभ्रष्टाः जाताः निबिडं वनं प्रविष्टवन्तः रात्रिः सञ्जाता तैः रात्रिं यापयितुम् एकस्य वृक्षस्य अधः उपवेष्टव्यम् अपतितम्
आपतितम्
आपतितम् रात्रौ रक्षणार्थम् एकैकः अपि पर्यायरूपेण एकं प्रहरं यावत् जागरितः भवेत् तदा अन्याभ्यां द्वाभ्यां निद्रां कर्तुं शक्यते इति ते निश्चितवन्तः
हा समीचीनं भगिनि हा अस्तु अग्रे जयन्त महोदय
प्रथमपर्यायः सात्यकेः आसीत् सः प्रहरी सन् स्थितः यदा अन्यौ द्वौ निद्रां कृतवन्तौ तदा वृक्षतः एकः पिशाचः अवतीर्णवान् सः सात्यकीं मल्लयुद्धार्थम् आहूतवान् बहूनि कटुवचनानि उक्तवान् च सात्यकीः तस्य कटुवचनानां कृते तादृशानि एव उत्तराणि दत्तवान् यदा पिशाचः सात्यकेः शरीरे मुष्टिप्रहारं कृतवान् तदा सात्यकीः तदुपरि पादप्रहारं कृतवान्
धन्यवादः महोदय अस्तु अग्रे गीताञ्जलि भगिनी अग्रे पठति वा
आं महोदय द्वितीय पूर्णं प्रहरं यावत् तयोः मल्लयुद्धं प्राचलत् तेन सात्यकेः शरीरे बहवः क्षताः सञ्जाताः सः नितरां श्रान्तः किन्तु तस्मिन् समये सहयोगिनोः उत्थापनस्य अपेक्षया निद्राकरणम् एव उचितम् इति विचिन्त्य सः निद्रां कृतवान् द्वितीयः पर्यायः बलरामस्य आसीत् तम् अपि पिशाचः मल्लयुद्धार्थम् आहूतवान् कटुवचनैः निन्दितवान् च मल्लयुद्धे महावीरेण बलरामेण अपि सा एव गतिः प्राप्ता श्रान्तः सः अपि प्रहरान्ते निद्रां कृतवान्
हा समीचीनं भगिनि हा समीचीनम् अस्तु अग्रे वंशीसुधा भगिनि
अस्तु महोदय तृतीयपर्याये श्रीकृष्णः सुरक्षानिमित्तम् आगतवान् तम् अपि पिशाचः मल्लयुद्धार्थम् आहूतवान् कृष्णः हसन् एव युद्धं कर्तुम् आरब्धवान् उक्तवान् च भवान् बहुविनोदप्रियः एव भासते मम निद्रां आलस्यं च दूरीकृतमेव भवान् क्षमता महोदय दूरीकर्तुमेव भवान् मित्रम् इव विनोदं कुर्वन्नस्ति इति तदा पिशाचस्य बलं न्यूनं जातं तस्य शरीरम् अपि सङ्कुचितं गतम् अन्ये सह सङ्कुचितं गतम् अन्ते सह छिल्लिका छिल्लिका इव लघु शरीरं जातः तदा श्रीकृष्णः तं स्वस्य उत्तरीयस्य अञ्चले
बद्धवान् समीचीनं भगिनि अस्तु इदानीं शोभा भगिनी
प्रातः यदा ते प्रस्थिताः तदा सात्यकिः बलरामः च पिशाचेन सह गात्रौ सञ्जातस्य मल्लयुद्धस्य वर्णनं कृतवन्तौ. तेन सञ्जातान् क्षतान् अपि दर्शितवन्तौ. श्रीकृष्णः हसन् पिशाचम् उत्तरीयस्य अञ्चलतः निष्कास्य करतले स्थापितवान्, उक्तवान् च, एषः अस्ति क्रोधपिशाचः, एतस्य प्रकृतिः एषा अस्ति, प्रत्युत्तरदानेन एषः वर्धते, उग्रतां च प्राप्नोति. किन्तु यदि उपेक्षां कुर्मः तर्हि सः स्वयमेव दुर्बलः भवति, लघुरूपं प्राप्नोति इति. क्रोधपिशाचस्य स्वरूपं तदा ज्ञातवन्तौ सात्यकी बलरामौ.
हा इति समीचीनं, धन्यवादः. अत्र विषयः कः? तत्र भूतकालरूपं तत्र अस्ति, कीदृशरूपम्? अपठत् अथवा पठति स्म अथवा पठितवान्, किम् अस्ति?
पठितवान् अस्ति.
हा, तादृशरूपाणि अनेकानि सन्ति अत्र. अस्तु तर्हि, तत्र पङ्क्तिशः पश्यामः किं किम् अस्ति इति. इदानीं तत्र रघुपतिमहोदय आरम्भं करोति वा तत्र?
अस्तु महोदय. एकदा श्रीकृष्णः बलरामः सात्यकी च वनविहारार्थं गतवन्तः आसन्. गतवन्तः इति भूतकालरूपम् अस्ति. आसन् गतवन्तः आसन् वनविहारार्थम् इति.
वने विहारं कर्तुं
वनविहारं कर्तुं
गतवन्तः.
अगच्छन्
आसन् पदम् अपि.
हा, आसनपि भूतकाले अस्ति. समीचीनं भगिनि. हा, समीचीनं भगिनि, समीचीनं. हा, तत्र भूतकालस्य आरम्भे एतदेव वयं कृतवन्तः खलु. अस्ति स्तः सन्ति इति तद् वर्तमानकाले अस्ति, किन्तु आसीत् आस्ताम् आसन् इति अस्ति. तत्र मध्यमपुरुषे किम् अस्ति? हा, समीचीनम्. आसीः आस्तम् आस्ता इति. समीचीनम्, आस्ता, समीचीनं. हा, अस्तु, अग्रे महोदय, रघुपतिमहोदय.
हा, वने ते मार्गभ्रष्टाः जाताः इति अस्ति.
ते इत्युक्ते
श्रीकृष्णबलरामसत्य सत्यकी च.
सत्यकी च. ते मार्गभ्रष्टाः जाताः. मार्गभ्रष्टाः इत्युक्ते?
मार्गभ्रष्टाः इत्युक्ते लस्तवे भ्रष्टा.
तदेव संस्कृतेन
एकनिमिषं. ते मार्गभ्रष्टाः जाताः इत्युक्ते ते मार्गं न
ज्ञातवन्तः, न ज्ञातवन्तः अथवा
न ज्ञातवन्तः
अथवा विस्मृतवन्तः.
कुत्र गन्तव्यम् इति
ज्ञातवन्तः. अन्यत् किं? नरेश महोदय किं वक्तुम् इच्छति? महोदय
जानीतः, परन्तु तत् वर्तमानकाले अस्ति.
समीचीनं महोदय. अस्तु, मार्गः न ज्ञातवन्तः अथवा मार्गं
विस्मृतवन्तः
इति.
निबिडं वनं प्रविष्टवन्तः. निबिडं वनम् इति विशेषणविशेषः भवति. प्रविष्टवन्तः गतवन्तः अथवा वनं प्रविष्टवन्तः. एण्टर्.
हा हा, सत्यं सत्यं. हा,
किमस्ति?
प्रवेशं कृतवन्तः.
हा, तदेव प्रवेशं कृतवन्तः. अस्तु, प्रवेशं कृतवन्तः.
अथवा निबिडे वने ते आसन्
गतवन्तः ते आसन् निबिडे वने ते आसन् रात्रिः सञ्जाता रात्रिः सञ्जाता तदा रात्रिः अभवत् रात्रिः आसीत्
तत्र सञ्जाता इति अस्ति तत् किमस्ति तत्र रात्रिः अपि सञ्जाता तयोः मध्ये कः सम्बन्धः
सञ्जाता रात्रि रात्रिः सञ्जाता इति त्रिलिङ्गे अस्ति सञ्जाता सञ्जातं सञ्जातः
हा रात्रिः पदं स्त्रीलिङ्गम् अस्ति एतदेव एषः सम्बन्धः तत्र किं कः सम्बन्धः विशेषण सः एव सम्बन्धः पूर्वस्मिन् वाक्ये अपि वने ते जाताः मार्गभ्रष्टाः जाताः तत्र सञ्जाताः तावदेव रात्रिः सञ्जाता ते जाताः अग्रे
तैः रात्रिं यापयितुम् एकस्य वृक्षस्य अधः उपवेष्टव्यम् आपतितं तैः इति अत्र कर्मणि प्रयोगः अस्ति तैः रात्रिं यापयितुं रात्रिं रात्रियापनार्थं
कुत्र गन्तव्यम् इति न जानन्ति अतः
वृक्षस्य अधः एव ते तिष्ठवन्तः
उपवेष्टव्यम् इति उपवेष्टव्यम् एकस्मिन् स्थले एकस्मिन् एकस्य वृक्षस्य अधोभागे स्थित्वा उपवेष्टव्यम् आपतितं तत्र किं तत्र आपतितम् इति आपतितम् इत्युक्ते तत्र ते न इष्टवन्तः तत्र वृक्षस्य अधोभागे वयं रात्रिः सम्पूर्णरात्रि तत्र एव तिष्ठामः इति तेषाम् आशा नासीत्
स्थितिः आपतितं
अतः तत्र कोऽपि कोऽपि उपायः नासीत् खलु अतः तत् तादृशं कृतवन्तः कि अन्यत् किमपि अन्य कोऽपि उपायः नास्ति इति ते कृतवन्तः उपवेष्टव्यम् आपतितम् इति तत्र आपतितम् इत्युक्ते या कापि घटना जीवने भवति एवमेव भवति तद् सौभाग्यस्य वार्ता नास्ति तत्र इट् हेपन् टु तम् इति ततः तदा वदामः आपतितम् एतद् आपतितम् इति अग्रे महोदय
रात्रौ रक्षणार्थम् एकैः अपि पर्यायरूपेण एकं प्रहरं यावत् जागरितः भवेत् तदा अन्याभ्यां द्वाभ्यां निद्रां कर्तुं शक्यते इति ते निश्चितवन्तः रक्षणार्थम् एकैकः अपि पर्यायरूपेण एकैकः अपि एकम् कृत्वा रक्षणार्थं पर्यायरूपेण रक्षणार्थं जागरितः भवेत्
एकः जागरितः भवति
अन्ये निद्रां अन्याः निद्रां कुर्वन्ति द्वाभ्यम् अन्यौ द्वौ निद्रां
करोति कुरुतः
अन्याभ्यां
द्वाभ्यां किमर्थम् तत्र
तत्र
कर्मणि प्रयोगः अस्ति ते
अन्याभ्यां द्वाभ्याम् इति विशेषणविशेषः अस्ति
द्वौ निद्रां तत्र द्वाभ्यां इति तत्र विभक्ति का तत्र केवलं द्वाभ्याम् अस्ति चेत् न जानीमः खलु तत्र द्वाभ्याम् इति तृतीया भवति
तृतीया चतुर्थी अपि च
पञ्चमी किन्तु अत्र तृतीया एव समीचीनं तृतीया एव कर्मणि रूपम् अस्ति कर्तुं शक्यते इति निद्रामिति निद्रां कर्तुं शक्यते इति
निद्रां द्वितीयविभक्ति अस्ति
कर्मणि नास्ति निद्रां कर्तुं शक्यते इति अस्ति भवेत्
जागरितः भवेत् तदा
किन्तु ते तैः निद्रां कर्तुं शक्यते
न महोदय तेन निद्रां कर्तुं शक्यते
कर्तुं शक्यते तदेव तदेव अहम् उक्तवान्
परन्तु निद्रां
द्वितीय न प्रथम
तत्र कर्तृपदं किम् अस्ति तत्र कर्तृपदं किम् अस्ति ताभ्यां तु नास्ति खलु कर्तृपदम्
तत्र निद्राम् अस्ति वा महोदय
तत्र किम् अस्ति तत्र प्रथमतया तत्र तेन तेन शक्यते इति अस्ति तत्र 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 रूपं किम् अस्ति सः शक्नोति एकवचने स्वीकुर्मः सः शक्नोति सः किमपि कर्तुं शक्नोति सः कार्यं कर्तुं शक्नोति इदानीं तस्य कर्मणि रूपं किं भवति
तेन
कार्यं कर्तुं
शक्यते
शक्यते तावदेव तत्र शक्यते इति क्रियापदस्य कर्मणि रूपम् अस्ति तस्य पूर्वम् अन्यत् क्रियापदम् अस्ति कार्य कर्तुम् इति तत् तुमुन् रूपम् अस्ति तत् तत् तत्र कर्मणि न कुर्मः वयं तत्र अतः सः शक्नोति तस्य कर्मणि किं तेन शक्यते इदानीं मध्ये अन्यत् किमपि स्थापयितुं शक्नुमः मध्ये समीचीनं वा अस्तु अत्र अन्याभ्यां द्वाभ्यां निद्रां कर्तुं शक्यते इति ते
निश्चितवन्तः
तत्र रात्रौ रक्षणार्थं रक्षणार्थम् एकः जागृतः भवति अपि
अन्यौ द्वौ निद्रां
निद्रां कुरुतः इति अस्तु समीचीनं अस्तु समीचीनं महोदय अस्तु अग्रे तर्हि तत्र किं नरेश महोदय अग्रे वदति वा
प्रथमः पर्यायः सात्यकेः
तत्र सात्यकेः इति विभक्ति का षष्टिविभक्ति समीचीनं महोदय सात्यकी प्रथमं प्रथमः जागरितः आसीत्
सः प्रहरी सन् चेतः
सन् सन् इति रूपं किम् अस्ति समीचीनं गच्छन् इति अस् धातोः रूपं प्रहरी सन् प्रहरी भूत्वा इति प्रहरी भूत्वा सः तत्र एव स्थितः यस्य पर्यायः अस्ति सः तत् सः एव तत्र प्रहरी सन् तस्य एव पर्यायः इति
यदा
महोदय क्षम्यतां महोदय किञ्चित् कार्यमस्ति अहं गच्छामि
अस्तु महोदय अस्तु धन्यवादः नमस्कारः
धन्यवादः नमस्कारः
नरेश महोदय वदतु
यदा अन्यौ द्वौ निद्रां कृतवन्तौ तदा वृक्षतः एकः पिशाचः अवतीर्णवान् द्वौ श्रीकृष्णः बलरामः निद्रां कृतवन्तौ एकः पिशाचः वृक्षात् अवतीर्णवान्
अवतीर्णवान् हा तत्र वृक्षः वृक्षतः इत्युक्ते वृक्षात् एव तत्र पञ्चविभक्तिरूपम्
समीचीनं मल्लयुद्धार्थम् आहूतवान्
सः सः इत्युक्ते
पिशाचः
हा सः पिशाचः सात्यकीं हा
मल्लयुद्धार्थं
आह्वानं कृतवान् मया सह मल्लयुद्धं करोतु मया सह मल्लयुद्धं करोतु इति सात्यकीम् उक्तवान् सः
बहूनि कटुवचनानि उक्तवान् च पिशाचः कटुवचनम् उक्तवान् बहूनि कटुवचनानि उक्तवान्
कटोर अथवा कटु वचनानि उक्तवान् समीचीनं महोदय
सात्यकिः तस्य कटुवचनानां कृते तादृशानि एव उत्तराणि दत्तवान्
हा इत्युक्ते किम्
सात्यकिः अपि तादृशं कृतवान् अपि कटुवचनान् दत्तवान्
उक्तवान् कटुवचनानि उत्तररूपेण उक्तवान् हा उत्तरम् अथवा उत्तराणि दत्तवान् किन्तु कटुवचनानि उक्तवान् सः अपि हा समीचीनं महोदय हा
यदा पिशाचः सात्यकेः शरीरे मृत्युप्रहारं कृतवान् तदा सात्यकिः तदुपरि पादप्रहारं कृतवान् पिशाचः सात्यकेः शरीरे षष्टिविभक्ति सात्यकेः शरीरे सप्तमीविभक्ति मुष्टिप्रहारं कृतवान् पिशाचः मुष्टिप्रहारं कृतवान् तदा सात्यकिः अपि पिशाच उपरि पादप्रहारं कृतवान्
हा पादप्रहारं हा पिशाचः अस्ति तस्य उपरि सात्यकिः पादप्रहारं कृतवान्
पूर्णं प्रहरणं यावत् तयोः मल्लयुद्धं प्राचलत् तदा सात्यकिः पिशाचस्य मध्ये मल्लयुद्धम् अभवत्
हा किन्तु केवलं एकनिमिषस्य युद्धं वा अथवा
पूर्णप्रहरं
हा पूर्णप्रहरं हा पूर्णप्रहरं यावत् हा तयोः मल्लयुद्धं प्राचलत् हा तत्र प्राचलत् इति रूपं वयं न दृष्टवन्तः तत्र अचलत् इति जानीमः प्रचलति इति जानीमः हा उपसर्ग अस्ति हा प्र प्लस् चलति प्रचलति तस्य लङ्लकाररूपं प्र प्लस् अचलत् प्राचलत् इति हा एतत् रूपम् अग्रिम अध्याये पश्यामः उपसर्ग अस्ति चेत् लङ्लकाररूपं कीदृशं भवति इति अग्रे पश्यामः किन्तु तदेव अत्र अस्ति प्राचलत् इति लङ्लकररूपं प्रचलति इति क्रियापदस्य. समीचीनम् अग्रे
महोदय.
प्रहार समयस्य एकः खण्डः, एकखण्डं तत्र किं दिने कति
प्रहाराः एकदिने
शतकेः शरीरे बहवः शताः सञ्जाताः.
शतः
शत इञ्जरि सात्यकेः शरीरे
शताः क्षताः सञ्जाताः. तत्र तेन इत्युक्ते केन? न पूर्णप्रहारं यावत् तयोः मल्लयुद्धं प्राचलत्. मल्लयुद्धेन सात्यकेः शरीरे बहवः क्षताः सञ्जाताः.
सः नितरां शान्तः. शान्तः
नितरां श्रान्तः. शान्तः इत्युक्ते अन्य कोऽपि वदति वा? नितराम् इत्युक्ते अत्र बहु इति तादृशार्थे वेरि इति. नितरां श्रान्तः सः नितरां श्रान्तः. अस्तु अग्रे महोदय.
किन्तु तस्मिन् समये सः योगिनोः उत्थापनस्य अपेक्षया निद्राकरणम् एव उचितम् इति विचिन्त्य सः निद्रां कृतवान्.
तत्र अपेक्षया इति पदमस्ति, तस्य प्रयोगः कीदृशः भवति? अन्य कोऽपि वदति वा अपेक्षया इति उपयुज्य एकं वाक्यं? हा सरलवाक्यं कोऽपि वदतु अपेक्षया उपयुज्य.
भवतः
हा तत्र मध्ये अपेक्षया अस्ति चेत् तत्र किं भवति? षष्टिविभक्तिरूपं. तत्र अपेक्षया पदस्य पूर्वं यद् वक्तुम् इच्छामः तत्र षष्टिविभक्तिरूपं भवितव्यम्. तादृशरूपं. तत्र किं प्रथमं किम् अस्ति? सहयोगिनोः
उत्थापनस्य.
एकमस्ति सहयोगिनोः उत्थापनम्, अन्यत् अस्ति निद्राकरणम्. किन्तु प्रथमस्य अपेक्षया द्वितीयम् एव उचितम् इति सः चिन्तितवान्. प्रथमम् अस्ति सहयोगिनोः उत्थापनं, द्वितीयम् अस्ति निद्राकरणम्. अतः किन्तु सः किं चिन्तितवान्? निद्राकरणम् एव उचितम् इति सः चिन्तितवान्. अतः सहयोगिनोः उत्थापनं सः न कृतवान्. अस्तु समीचीनं महोदय, धन्यवादः.
महोदय, मान्स्टर्स् इङ्क् इति चलचित्रस्य प्रेरणा महोदय क्रोधपिशाचः दत्तम्
इति वा? न जानामि भगिनि. न जानामि. अस्तु किन्तु एतत् प्रथममुद्रणं कदा एतस्य? एतत्तु किं एतत्तु प्रथममुद्रणं 2009 इति अस्ति तत्र गीतासोपानं
महोदय किन्तु कथा इति प्राचीन
अस्तु सत्यं भगिनि सत्यं हा हा सत्यं
महोदय तत्र सहयोगिनोः इति द्विवचने अस्ति षष्ठी विभक्तौ अस्ति महोदय
सत्यं
गुणिं शब्दवत् अस्ति वा महोदय
हा सहयोगी हा योगी योगिनो योगिन् हा
सहयोगिन् नकारान्तशब्दं
सत्यं भगिनि सत्यं हा तत्र किमर्थं षष्ठी विभक्तौ अस्ति तत्र
अपेक्षया अस्ति महोदय सहयोगिनोः उत्थापनस्य अपेक्षया
न न न न न
सहयोगिनोः
तत्र उत्थापन अत्र कार्यं कार्यद्वयमस्ति खलु भगिनि हा उत्थापनकार्यम् अपि निद्राकरणं कार्यम् उत्थापनं कार्यस्य अपेक्षया अतः उत्थापनस्य अपेक्षया किन्तु कस्य उत्थापनम् इति हा अतः तत्र षष्ठीविभक्ति भवति सहयोगिनोः उत्थापनम् इति अत्र षष्ठीविभक्ति अस्ति उत्थापनम् इति कस्य उत्थापनम् इति तस्मात् कारणात् तत्र षष्ठीविभक्ति अस्ति किन्तु उत्थापनस्य इति तत्र षष्ठी अस्ति अपेक्षया इति कारणात् समीचीनं वा इदानीं
आम् महोदय तत्र प्राचलत् प्रचलत् अति सम्यक् एव महोदय
तत्र एतद् वयं न दृष्टवन्तः किन्तु तत्र किम् अस्ति चलति इति अस्ति तस्य लङ्लकाररूपं किम् अस्ति अचलत् इति अस्ति अपि प्रचलति इति क्रियापदम् अस्ति चलति इति क्रियापदस्य लङ्लकाररूपम् अस्ति अचलत् प्रचलति इति क्रियापदस्य लङ्लकाररूपम् अस्ति प्राचलत्
परन्तु अर्थः समानः अस्ति वा महोदय तत्र प्रचलत् प्राचलत्
चलति प्रचलति तत्र चलति इति ज्ञानं चलति किन्तु प्रचलति यः यः विषयः प्रचलमानम् अस्ति अस्मिन् वर्गे अतः तत्र किञ्चित् भेदः अस्ति किन्तु तत्र रूपं तु प्राचलत् इति तत् प्रचलति इति क्रियापदस्य लङ्लकरूपम् अन्य प्रश्नः अस्ति वा तत्र अस्तु तर्हि अत्र निद्रां कृतवान् इति तत्र श्रीकृष्णः बलरामः सात्यकीः अपि पिशाचः सर्वे सन्ति तत्र वने निबिडवने मार्गभ्रष्टाः सन्ति ते अपि सात्यकीः मल्लयुद्धं कृत्वा बहु श्रान्तः अस्ति सः निद्रां कृतवान् इदानीम् अग्रे किं भवति इति अग्रिमवर्गे पश्यामः इदानीं निद्रां कर्तुं
अस्तु
अतः अग्रिमवर्गे तत्र बलरामः किं करोति अपि श्रीकृष्णः किं करोति इति पश्यामः अस्तु तर्हि अन्य प्रश्नः अस्ति वा
पादप्रहारम् इत्युक्ते किं महोदय प्रहारं
पादेन पादेन प्रहारं
ताडयन्तम्
पादेन ताडयति सत्यं
ताडयति
सत्यं भगिनि पादेन पिशाचः मुष्टिः इति तस्य उपयोगं कृत्वा सः ताडितवान् सात्यकिः पादेन ताडितवान् सत्यं भगिनि सत्यं अन्य प्रश्नः
महोदय तत्र अष्टातुरूपं शत्रान्तरूपं सन् अस्ति परन्तु शानच् रूपं किम् अस्ति महोदय
शानच् रूपं
प्रयोगे किम् अस्ति
अग्रे हा दृष्ट न स्मरामि भगिनि हा किन्तु अस्ति 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 सत्यं अस्तु अस्तु भगिनि हा इदानीं न स्मरामि हा अस्तु अस्तु अन्य कोऽपि प्रश्नः अस्ति वा
महोदय
हा
स्म इति उपयोगः केन आस्क् इन् इङ्ग्लिश् like if I'm going to do it now and in the future also sma iti shabdasya upayogam kartum shaknumah
na 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 kevalam bhutakala arthe
astu
kevalam bhutakala arthe ha ha tatra sulabam bhavatu iti sma iti asti ha sma iti tatra
kripya vadatu
हा अत्र स्म इति वयं दृष्टवन्तः तत्र कण्टिन्यूस् इति अर्थे अस्ति किन्तु सर्वदा भूतकाले एव अस्ति
सो इदानीम् अहं किमपि कार्यं करोमि
तत् करोमि वर्तमानकालरूपमेव अस्ति हा
पूर्वमेव तत् कार्यं कृतवती तस्य प्रयोगं स्म इति
नास्ति तत् केवलं कण्टिन्यूस् इति अर्थे अस्ति चेत् स्म इति
भूतकाले
भूतकाले भूतकाले
फार् एक्साम्पल् ऐ एम् टीचिङ्ग् नौ ऐ वास् टीचिङ्ग् आल्सो सो
ऐ वास् टीचिङ्ग् इति अहं पाठयामि स्म इति भवति
बट् ऐ एम् डूयिङ्ग् दट् नौ आल्सो
अहं पाठयामि तत्र तत्र लट् लकारे तत्र एकवारम् अथवा बहुवारम् अथवा कण्टिन्यूस् तत्र भेदः नास्ति अहं पाठयामि किन्तु एतद् रूपं भूतकाले स्म इति तत्र भेदः भवति अहम् एकवारं पाठितवती अथवा पाठितवान् अपि हा पाठयामि स्म इति इत्युक्ते कण्टिन्यूस् बहुवारं तत्र अनेकदिनम् अथवा वर्षपर्यन्तम् अहं पाठितवती इति तादृश अर्थे किन्तु भूतकाले एव
बट् मै क्वश्चन् इस् इफ् ऐ एम् डूयिङ्ग् दट् नौ आल्सो ऐ वास् डूयिङ्ग् द सेम् वर्क् अर्लियर् आल्सो सो अट् दट् टैम् केन् ऐ यूस् दट् करोति स्म लैक् दट्
अट् दट् टैम् सो अतः भवान् किं वक्तुम् इच्छति भवती पाठयति स्म इदानीमपि भवती पाठयति
अस्तु
तावदेव अहं पाठयामि स्म इदानीमपि अहं पाठयामि
अस्तु
इफ् ऐ वाण्ट् टु से ऐ थाट् देर् ऐ वोण्ट् यूस् स्म इफ् ऐ वाण्टेड् टु से ऐ वास् टीचिङ्ग् ऐ विल् से अहं पाठयामि स्म परन्तु अहं ऐ थाट् इस् नाट् अहं पाठयामि स्म अहं पाठितवान् अहं पाठितवान् ऐ वाल् टीचिङ्ग् अहं पाठयामि स्म
षट् धातोः उभयपदी धातु अस्ति किल महोदय शक्यति शक्यते
शक्नोति
शक्नोति अपि अन्यरूपम् अस्ति शक्नोति
तत्र यकारः अस्ति तत्र यकारः शक्यते इति तत् शक्यते इति आत्मनेपदीरूपम् अस्ति किन्तु तत् शक्नोति इति
शक्यति शक्यते
हा द्रष्टव्यमस्ति भगिनि हा न स्मरामि किं भगिनि
अस्ति
हा तत् अत्र शक्यते इति तत् कर्मणि रूपम् अस्ति हा
मम शक्यति शक्यते इति उभयपदी अस्ति महोदय चेत् सदा कर्मणि प्रयोगे एव तस्य प्रयोगमस्ति किल
तत्र शक्यते इति केवलं कर्मणि प्रयोगे एव भवति.
किन्तु तत् उभयपदी धातु शक्यति शक्यते इति उभयपदी धातु अस्ति शक्
तत् फोर्त् गणे चतुर्थगणे अस्ति शक्नोति इति पञ्चमगणे अस्ति.
तत्र तत् उभयपदी नास्ति इति मन्ये भगिनि द्रष्टव्यमस्ति.
उभयपदी अस्ति महोदय तत् शक्नोति तत् डिफ्रेण्ट् अस्ति. एतत्
दिवादिगणे
शक्यते मर्षणे विभीष्यते मर्षणे शक्यते शक्यतः शक्यन्ति
शक्यते शक्नोति द्वातु भिन्नः अस्ति.
शक्यते शक्येते शक्यन्ते तत् डिफरेण्ट्
द्रष्टव्यमस्ति भगिनि. एकवारं तत्र अन्वेषणं कृत्वा वदामि. किन्तु
अस्तु महोदय.
अस्तु अन्य कोऽपि प्रश्नः? अस्तु तर्हि अस्तु तर्हि विरमामः. अग्रिमवर्गे मिलामः. सर्वेभ्यो नमः. धन्यवादः. नमस्कारः.
धन्यवादः. धन्यवादः.